सहस्रशीर्णम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वन्नारायणम् देवमक्षरम् परमम् प्रभुम् विश्वतः परमन्नित्यम् विश्वन्नारायणगुम् हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगम् शिवमच्युतम् नारायणम् महाज्ञेयम् विश्वात्मानम् परायणम् नारायण परम् ब्रह्म तत्त्वम् नारायणः परः नारायण परो ज्योतिरात्मा नारायणः परः यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयते पिब अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेऽन्तम् विश्वशम्भुवम् पद्मकोशप्रतिकाशगुम् हृदयम् चाप्यधोमुखम् अथो निष्यामि तस्याम् तु नाभ्यामुपरि तिष्ठति हृदयम् तद्विजानीयाद्विश्वस्यायतनम् महत् सन्ततगुम् शिलाभिस्तुलम् पत्याकोशसन्निभम् तस्यान्ते सुशिरगुम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वाक्षिर्विश्वतो मुखः सोऽग्रभुक् विभजन् तिष्ठन्नाहारमजरः कविः सन्तापयति स्वम् देहमापाततलमस्तकम् तस्य मध्ये वह्निशिखा अनीलोर्ध्वा व्यवस्थितः नीलतो यदमध्यस्थ विद्युल्लेके भवास्वरा नीवारशोकपद्वन्विपीताभा स्यात्तनूपमा तस्या शिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमस्वराद् हृदगम् सत्यम् परम् ब्रह्म पुरुषम् कृष्णपिङ्गलम् ऊर्ध्वरेतम् विरूपाक्षम् विश्वरूपाय वै नमः